इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिकाः कामना झाः। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य षष्ठम चरणीय मतदानाय सर्वाः सज्जाः सम्पूरिताः सन्ति। मतदानं च श्वः भविष्यति। लोकसभा निर्वाचनस्य अन्तिमाय सप्तमाय च चरणाय प्रचार अभियानं तीव्रं जातम्। विविध राजनीतिक दलानां शीर्ष नेतारः मतदातृन स्वकीये पक्षे आक्रष्टुं सर्वसंभव प्रयासान् कुर्वन्ति। अद्य पापुआ न्यू गिनी देशस्य एकस्मिन् दूरस्थे भागे भूसंक्रमणात् न्यूनातिन्यूनं 100 जनाः मृताः। भारत ऋतु विज्ञान विभागेन उक्तं यत् आगामी 5 दिवसेषु राजस्थान, हरियाणा, गुजरात, पंजाब, मध्यप्रदेश राज्येषु तीव्रतापतरंगस्य स्थितिः यथावत् एव भविष्यति। अपि च क्रीडावार्तासु भारतस्य ज्योति सुरेखा विन्नम प्रियांश च अद्य दक्षिण कोरिया देशस्य येची योन नगरे आयोजितस्य धनुर्विद्या विश्व चषकस्य द्वितीय चरणे स्थानं प्राप्तवन्तौ। आईपीएल इत्यस्याम प्रतिस्पर्धायाम अद्य सायं चेन्नई नगरे द्वितीय प्रविष्ट चक्रे सनराइजर्स हैदराबाद दलम राजस्थान रॉयल्स दलम अभिमुखं करिष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य षष्ठम चरणीय मतदानाय सर्वाः सज्जाः सम्पूरिताः सन्ति। मतदानं च श्वः भविष्यति। अस्मिन् चरणे बिहारस्य 8, हरियाणायाः सर्वाणि 10, जम्मू कश्मीरस्य 1, झारखण्डस्य 4, देहल्याः सर्वाणि 7, ओडिशायाः 6, उत्तरप्रदेशस्य 14, पश्चिम बंगालस्य 8 आसनानि सम्मिलितानि सन्ति। चरणे अस्मिन् प्रमुख अभ्यर्थित्वेन केन्द्रीय मन्त्रिणः भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेतारश्च सन्ति, येषु धर्मेन्द्र प्रधानः, मेनका गांधी, मनोहर लाल खट्टरः, संबित पात्रा, बांसुरी स्वराजः, मनोज तिवारी, कांग्रेसस्य दीपेन्द्र सिन्हा हुड्डा, कुमारी सैलजा, राज बब्बरः, कन्हैया कुमारः, समाजवादी पार्टी इति दलस्य धर्मेन्द्र यादवः, पीडीपी दल प्रमुख महबूबा मुफ्ती ही वर्तन्ते। चरणे अस्मिन् 89.8% जनाः प्रत्याशी भूताः सन्ति। मतदानं प्रातः 7 वादनतः सायं 6 वादनपर्यन्तं करिष्यते। जनपद राज्ययोः निर्वाचन अधिकारिणः परामर्शं प्रदत्तवन्तः यत् उष्णतापकाले अस्मिन् सुरक्षायाः सर्वाः प्रबन्धाः नियोजितव्याः। राष्ट्रिय राजधान्यां नवदिल्ल्याम् आहत्य 2.8% प्रत्याशिनः नैर्वाचनी समरांगने सन्ति। उत्तरप्रदेशे वैद्युतकीय मतदातृयन्त्रम् अन्यश्च निर्वाचन सम्बद्ध सामग्र्याः सुदृढं सुरक्षा अन्तर्गतं प्रेषिताः सन्ति। लोकसभा निर्वाचनस्य अन्तिमाय सप्तमाय च चरणाय प्रचार अभियानं तीव्रं जातम्। विविध राजनीतिक दलानां शीर्ष नेतारः मतदातृन स्वकीये पक्षे आक्रष्टुं सर्वसंभव प्रयासान् कुर्वन्ति। अस्य चरणस्य मतदानं जून मासस्य प्रथमे दिनांके भविष्यति। सप्त चरणे अस्मिन् उत्तर प्रदेश पंजाबयोः 3, पश्चिम बंगालस्य 9, बिहारस्य 8, ओडिशायाः 6, हिमाचल प्रदेशस्य 4, झारखण्डस्य 3, केन्द्रशासित प्रदेशस्य चण्डीगढस्य 1 इति आसनेभ्यः मतदानं भविष्यति। अस्मै चरणाय प्रतिस्पर्धाय 4.9% प्रत्याशिनः संघर्षरताः भविष्यन्ति। स्वीय प्रचार अभियानावधौ प्रधानमंत्री नरेन्द्र मोदी हिमाचल प्रदेशस्य शिमला नगरे एकां जनसभां सम्बोधितवान् असौ कथितवान् यत् सत्ताग्रहणानन्तरं एनडीए प्रशासनेन सामान्यवर्गस्य निर्धनेभ्यः 10% आरक्षणं प्रदत्तम्। एतदर्थमेव अद्य साम्प्रतिके समये नैव जनाः वित्तावसरान् प्राप्नुवन्ति। इंडी संयुक्ते राजद कांग्रेस इत्यादीनां दलानां नेतारः अपि प्रत्याशिनां समर्थने जनसभाश्च कुर्वन्ति। सर्वेषां चरणानां मतगणना जून मासस्य चतुर्थे दिनांके भविष्यति। अद्य पापुआ न्यू गिनी देशस्य एकस्मिन् दूरस्थे भागे भूसंकलनात् न्यूनातिन्यूनं 100 जनाः मृताः इति सूचना अधिगता। वार्ता प्रतिवेदनानुसारि द्वीपराष्ट्रस्य एंगा प्रान्ते काउ कलाम ग्रामे भूसंकलनेन ग्रामीण पतितानि। मृतकानां संख्या वर्धते इति आशंका अस्ति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारत ऋतु विज्ञान विभागेन ह्यः उक्तं यत् आगामि 5 दिवसेषु राजस्थान हरियाणा गुजरात पंजाब मध्यप्रदेश राज्येषु प्रवाहस्य तीव्रताप तरंगस्य स्थितिः यथावत् एव भविष्यति। आकाशवाण्यै प्रदत्ते वक्तव्ये वरिष्ठः ऋतु वैज्ञानिकः आर के जेणामणिः अवोचत् यत् एतेषु क्षेत्रेषु तरंगे न्यूनता संप्रति न दृश्यते। एतेषु क्षेत्रेषु तापमानं 40 डिग्री सेल्सियस मितः 48 डिग्री सेल्सियस मितं यावत् भविष्यति। स्थित्यानुसारि विभागेन क्षेत्रेषु रक्त नारंग वार्णिकी च संचेतना प्रसारिता अस्ति। राष्ट्रीय सुरक्षा परामर्शदः अजीत डोभालः आवोचत् यत् भारतं द्रुततया प्रवर्धते, अपि च आगामि 10 वर्षेषु अत्र 10 ट्रिलियन डॉलर मितस्य अर्थव्यवस्था भविष्यति। श्री डोभालः नवदिल्ल्याः विज्ञानभवने सीमा सुरक्षा बलस्य 21वें अलंकरण समारोहे रुस्तम जी स्मृति व्याख्यान च आयोजितं समारोहं संबोधयन् आसीत्। राष्ट्रीय सुरक्षा परामर्शः उक्तवान् यत् प्रौद्योगिक्य पद्धत्या भारतं अर्धचालक कृत्रिम मेधा विनिर्माण रक्षा सुरक्षादीनां समेत्य अनेकेषु क्षेत्रेषु उन्नतो भविष्यति। श्री डोभालः देशस्य सीमनां सुरक्षायां संलग्नेभ्यः बीएसएफ इत्याख्यस्य बलस्य योगदानं प्रशंसितवान्। जम्मू कश्मीरस्य सीमांत जनपदस्य पुंछ क्षेत्रस्य जनपद अधिकारिणा निर्वाचन प्रक्रियायां अधिकतम सहभागित्वं सुनिश्चितम्। सर्वे शाम सर्व कार्य कर्मचारिणां कृते श्वः अवकाशं घोषिताः, परन्तु मतदात्री कर्मचारिणः को अपि अवकाशं न प्राप्नुयुः। भारतस्य ज्योति सुरेखा विन्नम प्रियांश च अद्य दक्षिण कोरिया देशस्य येचियोन नगरे आयोजितस्य धनुर्विद्या विश्व चषकस्य द्वितीय चरणे स्थानं प्राप्तवन्तौ। आतिथ्य देशस्य हान सेंगयोन तथा यांग जेवोन इत्येतयोः द्वयो दलं उपान्त्य स्पर्धायां पराजयत्। आईपीएल इत्यस्याम प्रतिस्पर्धायाम अद्य सायं चेन्नई नगरे द्वितीय प्रविष्ट चक्रे सनराइजर्स हैदराबाद दलम राजस्थान रॉयल्स दलम अभिमुखं करिष्यति। पारस्परिक प्रतिस्पर्धायाः 19 संघर्षेषु सनराइजर्स हैदराबाद दलम 10 विजयेन सह लाभं प्राप्तवत्। तत्रैव राजस्थान रॉयल्स दलम 9 विजयम् अधिगतवत्। इतः पूर्वं प्रथमे प्रविष्ट चक्रे द्वन्द्वे सनराइजर्स हैदराबाद दलं कोलकाता नाइट राइडर्स दलेन पराजितम्। इति वार्ताः।